अस्तु, द्रव्यनिरूपणप्रसङ्गे मनोनिरूपणम् इति विषयः अवशिष्टः अस्ति. नवद्रव्येषु अस्माभिः सर्वेषां द्रव्याणां निरूपणं दृष्टमस्ति मनः विहाय. पृथ्वी, जलं, तेजः, वायुः, आकाशः, कालः, दिक्, अपि च गतवर्गे आत्मा इति एतावत्पर्यन्तं दृष्टम्. अद्यतनविषयः अस्ति मनोनिरूपणमिति, ततः अग्रे गच्छेम. तर्हि नागराजमहोदय, सप्ततितमे पुटे पश्यति वा मनोनिरूपणम् इति?
मनोनिरूपणम् इत्थम् आत्मरूपं तदेव खलु?
सत्यं महोदय.
इत्थम् आत्मरूपं द्रव्यं निरूप्य मनोरूपं द्रव्यं निरूपयति. सुखदुःखादि उपलब्धि साधनम् इन्द्रियं मनः.
सुखाद्युपलब्धिसाधनम् इति उक्तम्.
सुखाद्युपलब्धि, सुखाद्युपलब्धिसाधनमिन्द्रियं मनः. क्षम्यतां, तत्र प्रत्यात्म
अस्तु महोदय, अग्रे गच्छतु महोदय.
तत्र प्रत्यात्मनियतत्वादनन्तं परमाणुरूपं नित्यं च इति. उपलब्धिः प्रत्यक्षं, सुखादीनां यत् प्रत्यक्षं भवति, अहं सुखी, अहं दुःखी इत्येवमाकारकं तस्य साधनं कारणं यदिन्द्रियं तत् मनः. चक्षुः, श्रोत्रादि इन्द्रियाणि तथा रूपशब्दादि गुणग्राहकाणि तथा सुखदुःखादि गुणग्राहकं यत् इन्द्रियं तत् मनः इत्युच्यते.
मनोनिरूपणे लक्षणवाक्यं किमस्ति महोदय?
सुखादि उपलब्धिसाधनमिन्द्रियं मनः.
तच्च प्रत्यात्मनियतत्वाद् अनन्तम् इत्युक्ते जीवात्मनः, जीवात्मानः अनन्ताः इति अस्माभिः दृष्टं गतवर्गे खलु. प्रत्येकं जीवात्मनः एकं मनः इति कृत्वा प्रत्यात्मनियतत्वाद् अनन्तम् अपि च परमाणुरूपं नित्यञ्च इति अस्ति. अस्तु, इतः अग्रे भवता यत्किञ्चित् पठितं तद् अवगम्यते वा?
करपत्रेपि एतदेव अस्ति, तं दृष्ट्वा किञ्चित् अवगतम् इति भाति.
हा, वदतु महोदय, यत्किमपि अवगतम्.
उपलब्धिः इत्युक्ते तदेव प्रत्यक्षं खलु?
सत्यम्, उपलब्धिः इत्युक्ते प्रत्यक्षं ज्ञानं.
सुखादीनां यत् प्रत्यक्षं भवति, अहं सुखी, अहं दुःखी इत्येवम् आकारं तस्य साधनं कारणं यदिन्द्रियं तत् साधनं करणं यदिन्द्रियं तत् मनः. अत्र मनः, मनसः षष्टिविभक्ति किं भवति भगिनि? मनः षष्टिविभक्ति किं?
मनसः.
मनसः, अत्र मनसः निरूप किञ्चित् विवरणम् अस्ति. अहं सुखी, अहं दुःखी, एतद् यदि वयम् अनुभवामः, तस्य साधनं करणं यदिन्द्रियं तत् मनः. तदेव अहं, मया अवगतम्.
प्रत्यक्षम् इत्युक्ते ज्ञानं, उपलब्धिः इत्युक्ते ज्ञानं, सुखाद्युपलब्धि साधनम् इति अस्ति खलु वाक्यलक्षणवाक्ये. उपलब्धिः इत्युक्ते ज्ञानं, तद् ज्ञानं साधयति मनः, अपि च मनः इन्द्रियमपि, आभ्यन्तर इन्द्रियम् इति अस्माभिः दृष्टम्. अतः लक्षणवाक्ये सुखाद्युपलब्धिसाधनम् इन्द्रियं मनः इति उक्तमस्ति.
अस्तु, चक्षुः, श्रोत्रादि इन्द्रियाणि यथा रूपशब्दादि गुणग्राहकानि तथा सुखदुःखादि गुणग्राहकं यत् इन्द्रियं तत् मनः इत्युच्यते. मनसः विवरणं इतर इन्द्रिय प्रकारेण यत्र
यथा चक्षुः रूपं गृह्णाति, श्रोत्रं शब्दं गृह्णाति, तद्वद् सुखादीनां ग्राहकं भवति मनः इति इन्द्रियं, तावदेव. अस्तु, अत्र एतदपि वक्तव्यमस्ति यद् अहं सुखी, अहं दुःखी इत्यत्र अहम् अहम् इति यद् पदं दृश्यते, अहम् इत्युक्ते जीवात्मा एव. अस्तु अस्तु, इतः अग्रे सरेम. तर्हि रत्ना भगिनी, अग्रिमपरिच्छेदद्वयं कृपया.
अस्तु भगिनि. अनेन इन्द्रियेण न केवलं सुखादीनां प्रत्यक्षं जायते, किन्तु तदाश्रयस्य आत्मनः अपि. यद्यपि आत्मनि रूपं नास्ति, तथापि दर्शितरीत्या बहिरिन्द्रियेण प्रत्यक्षजनने एव रूपापेक्षा. मनस्तु आभ्यन्तरम् आत्मनं तद् गुणान् च गृह्णाति. आत्मानं तद् गुणान् गृह्णाति. अस्तु, इदानीं यथा महोदयेन पठितं, मनसा सुखं दुःखम् इत्यादीनां ग्रहणं भवति, केवलं तावत् न, किन्तु तस्य आश्रयः इत्युक्ते मनसः आश्रयः आत्मा, तस्य ज्ञानमपि, तस्य प्रत्यक्षमपि भवति, आत्मनः प्रत्यक्षमपि भवति मनसा इति. आत्मनः रूपं
पुनस्मरणार्थं केवलं वदामि, पूर्वमपि दृष्टं खलु, यानि इन्द्रियाणि न केवलं गुणम् अपि च द्रव्यम् अपि गृह्णाति, तदाश्रितद्रव्यम् अपि गृह्णाति इति वयं दृष्टवन्तः. तत्र चक्षुः आसीत्, त्वग् इति आसीत्, मनः अपि अन्यतम इन्द्रियमस्ति, यद् न केवलं गुणम् अपि च तदाश्रितद्रव्यमपि गृह्णाति इति. अस्तु भगिनि, अग्रे.
आत्मनः रूपं नास्ति, किन्तु यथा चक्षुः, श्रोत्रेन्द्रियं, तेषां प्रत्यक्षं भवति, तथाविध रूपं नास्ति आत्मनः, किन्तु मनस्तु मनः आभ्यन्तर इन्द्रियम्, आत्मनः तद्गुणाञ्च गृह्णाति. आत्मानं
द्वितीयविभक्ति.
अस्तु, आत्मानं तद्गुणान् गृह्णाति. अस्तु, आत्मनः गुणान् अपि गृह्णात्. अस्तु, आत्मनः गुणमस्ति मनः इति वा भगिनि, गुणम् अस्ति
न भगिनि, आत्मानं गृह्णाति.
अस्तु, मनः,
हा, मनः आत्मानं गृह्णाति, मनः आत्मनः गुणान् गृह्णाति इति वाक्यस्य भागद्वयं कृत्वा परिशीलयामश्चेत् स्पष्टं भविष्यति.
अस्तु अस्तु, मनः आत्मनः गुणान् गृह्णाति. अस्तु, यदि आत्मने सुखमस्ति दुःखमस्ति, तत्सर्वं गृह्णाति मनः इति.
तदपि गृह्णाति, आत्मानमपि गृह्णाति.
अस्तु,
यथा चक्षुः रूपमपि गृह्णाति, अपि च रूपस्य द्रव्यं यत्किमपि अस्ति तदपि गृह्णाति, तद्वदेव मनः अपि.
अस्तु अस्तु अस्तु. काललक्षणे व्यवहारः ज्ञानजनकशब्दप्रयोगरूपः प्रविष्टः, तत्र च ज्ञानं सविषयकं प्रविष्टम् इति तस्य विषयता अतीतत्वे घटादौ च निरूपिता. तद्वदेव इहापि उपलब्धिः प्रत्यक्षरूपं ज्ञानं सविषयकम् इति अत्रापि तद्विषयता वक्तव्या. तदाश्रयश्च सुखं भवति, तदाश्रयप्रत्यक्षं प्रति साधनं कारणं मनः चेत् कार्यं प्रत्यक्षं, कार्यता प्रत्यक्षे, तन्निरूपिता कारणता मनसि इत्येवं रीत्या विवेचनं भवति यथा तथा च चित्रम् अस्तु यथा चित्रे अस्ति सुखम् अस्ति चेत् तस्मिन् विषयता अस्ति सा विषयता विषयिता निरूपिता तस्याः आश्रयः प्रत्यक्षं
प्रत्यक्षम् इत्युक्ते ज्ञानम् ज्ञानं सर्वदा सविषयकं भवति खलु अत्र ज्ञानस्य विषयः कः
सुखम् इति
तावदेव
प्रत्यक्षे जन्यता अस्ति सा जन्यता अस्ति चेत् जनकतां निरूपयति सा जनकता मनसि अस्ति इति इत्युक्ते मनसा सुखं ज्ञायते यत् ज्ञाने अस्ति इति
हा तदर्थमेव सुखाद्युपलब्धिकारणम् इति उक्तम् खलु तर्हि तत्र वाक्यं किं भवितुम् अर्हति भगिनि इदानीं यद्वयं दृष्टवन्तः सुखाद्युपलब्धिसाधनत्वम् इन्द्रियं मनः तत्तु किं तटस्थलक्षणं नास्ति खलु मनः तटस्थलक्षणम् इति वयं दृष्टवन्तः यद् गन्धवत्वं पृथिव्याः लक्षणम् इति वदामश्चेत् तत्र तटस्थलक्षणमस्ति लक्षणम् इत्यस्य निर्देशः प्राप्यते गन्धवत्वम् इति प्रथमविभक्त्याम् अस्ति तर्हि अस्य चित्रस्य साहाय्येन तादृशवाक्यं कल्पयितुं शक्नुमः वा सुखात् आरभ्य मनः पर्यन्तं गच्छति चेत्
सुखनिष्ठविषयतानिरूपित किं वदामि विषयतानिरूपिता विषयिता आश्रयः प्रत्यक्षं निष्ठ जन्यतानिरूपिता जनकता वान् मनः
पुनः मनः इत्येव उक्तवती भवती इत्युक्ते मनसः निर्देशः प्राप्तः तर्हि अहम् इच्छामि यद् मनसः लक्षणम् इति भवतु अन्ते इति तदा जनकताश्रयत्वं मनसः लक्षणम् इति वक्तुं शक्नुमः खलु
आम् आम्
सुखनिष्ठविषयतानिरूपितविषयिता विषयताश्रय प्रत्यक्षनिष्ठजन्यतानिरूपितजनकताश्रयत्वं मनसः लक्षणम् इति आगच्छति इति एकमस्ति वस्तुतः मनसः लक्षणवाक्ये दलद्वयमस्ति सुखाद्युपलब्धिसाधनमिति एकम् इन्द्रियम् इति अपरं दलं दलद्वयमपि अपेक्षितं किमर्थम् इति अग्रे गत्वा किञ्चित् परिशीलयिष्यामः अधुना प्रथमदलम् एवमस्ति सुखनिष्ठविषयतानिरूपकज्ञानमस्ति तद् ज्ञाननिष्ठकार्यता अथवा ज्ञाननिष्ठजन्यतानिरूपितकारणताश्रयत्वं मनसः लक्षणम् इति आगच्छति के सन्ति अधुना नूतनतया वेङ्कटेशमहोदय अस्तु अनन्तरं
नमस्कारः भगिनि अजितः
ओ अजितमहोदय अस्तु अनन्तरं कोऽपि अस्ति वा त्रयः जनाः आगताः इति भाति
अहमेव पुनः आगतवती
ओ अस्तु तर्हि इतः अग्रे सरेम अस्तु तर्हि सुखादि उपलब्धिसाधनम् इति प्रदर्शयति उपरितनचित्रम् इति एकं दलं मनसः लक्षणे अपरं दलमस्ति इन्द्रियम् इति मनः इन्द्रियम् अपि तद् अग्रे परिशीलयिष्यामः बालसुब्रह्मण्यमहोदय अग्रे पठति वा
अत्र च वायुलक्षणे एव द्वे दले वर्तेते सुखादिप्रत्यक्षसाधनत्व मात्र उक्तौ आत्मनि अतिव्याप्तिः प्रत्यक्षं प्रति आत्मनः अपि कारणत्वात् अतः इन्द्रियत्वं देयम् आत्मनि न इन्द्रियत्वम् इति न अतिव्याप्तिः इन्द्रियत्वमात्र उक्तौ चक्षुरादौ अतिव्याप्तिः, अतः सुखादिप्रत्यक्षजनकत्वमपि दातव्यम्। चक्षुः रूपप्रत्यक्षजनकं न तु सुखग्राहकम् इति न अतिव्याप्तिः।
उच्यतां महोदय।
अत्र वायुलक्षणैव अत्रापि मनः द्विदले वर्तते।
वायुलक्षणवाक्यं स्मरति वा? रूपरहितस्पर्शवान् वायुः।
रूपरहितस्पर्शवान् वायुः।
हा, तत्रापि दलद्वयमासीत् खलु? रूपरहितत्वे सति स्पर्शवत्वं वायोः लक्षणम् इति आसीत्।
अत्र दले द्वे वर्तते,
वर्तेते द्वे दले वर्तेते।
के सुखम् इति,
सुखाद्युपलब्धिसाधनम् इति एकं दलम्, इन्द्रियत्वं हा साधनत्वम् इति एकम् अपरं दलं खलु, दल
द्वितीयदलम् इति किल?
सत्यं। तर्हि द्वे दले वर्तेते, दलद्वयस्यापि आवश्यकता अस्ति, किमर्थम् इति अग्रे चर्चितम्। अग्रिमवाक्यं पठतु।
सुखादिप्रत्यक्षसाधनत्वमात्र उक्तौ आत्मनि अतिव्याप्तिः। सुखादिप्रत्यक्षसाधनत्वं सुख इति उक्तः चेत् आत्मनि अतिव्याप्तिः भवति।
सुख इति उक्तः चेत् इति न, सुखादिप्रत्यक्षसाधनत्वम् इति,
प्रत्यक्षसाधनत्वम् इति उक्तः चेत् आत्मनि अतिव्याप्तिः भवति।
हा, कथं महोदय, कथमिति? साधनत्वम् इत्युक्ते कारणत्वम्, अस्तु, यथा पूर्वस्मिन् परिच्छेदे भगिनी पठितवती, तत्र साधनत्वम् इत्युक्ते कारणत्वं। सुखादिप्रत्यक्षसाधनत्वं मनसि अस्ति इति वयं दृष्टवन्तः चित्रस्य परिशीलनं कृत्वा। अस्तु, अत्र प्रश्नः अस्ति यत् तादृशसुखादिप्रत्यक्षसाधनत्वम् आत्मनि अपि अस्ति वा इति प्रश्नः, किं चिन्तयति?
आम् अस्ति, तदर्थमेव अतिव्याप्ति दोषम् अस्ति अत्र।
हा, आत्मा कीदृशकारणं सुखस्य?
सुखस्य
कोऽपि साहाय्यं करोति वा विद्याशङ्करमहोदय?
आत्मा अधिकरणम् अस्ति
सुखस्य,
सुखदुःखादि गुणस्य।
हा, समवायिकारणं, समवायसम्बन्धेन अधिकरणमस्ति आत्मा खलु, तर्हि समवायिकारणं भवति। उपरितनचित्रे मनः इत्यस्य स्थाने आत्मा इति स्थापयित्वापि चित्रं शक्यं, शरीरम् इति स्थापयित्वा अपि शक्यं वक्तुं, यतोहि मनसः क्षम्यतां, सुखस्य अनेकानि कारणानि सन्ति, तेषु आत्मा शरीरम् अन्यतमे कारणे स्तः इति कृत्वा तत् शक्यमेव। तर्हि सुखादिप्रत्यक्षसाधनत्वम् इति केवलं वदामश्चेत् आत्मनि अतिव्याप्तिः। अतः किं वक्तव्यम्? अग्रे पठतु।
प्रत्यक्षं प्रति आत्मनः अपि कारणत्वात् अतः इन्द्रियत्वं देयम्।
बुद्धं वा?
प्रत्यक्षं प्रति आत्मनः अपि कारणत्वात् अतः इन्द्रियत्वं देयम्। आत्मनः अपि, आत्मा अपि कारणम्,
अतः इन्द्रियत्वम् अपि देयम् इत्युक्ते वक्तव्यं, देयं दादातोः न्यत् देयम् इति अस्ति, अस्तु, इन्द्रियत्वम् अपि दातव्यम्। मनः इन्द्रियमस्ति, आत्मा इन्द्रियमस्ति वा?
न,
शरीरम् इन्द्रियम् अस्ति वा? हा, तर्हि सुखादिप्रत्यक्षसाधनत्वम् आत्मनि शरीरे वर्तते, परन्तु आत्मा शरीरश्च इन्द्रियं न स्तः, मनः एव इन्द्रियम् इति कृत्वा सुखादि उपलब्धिसाधनम् इन्द्रियम् इति दलद्वयम् आगच्छति, मनसः लक्षणवाक्ये. अग्रे,
आत्मनि न इन्द्रियत्वम् इति न अतिव्याप्तिः, सर्वमेव इन्द्रियत्वमात्र उक्तौ चक्षुरादौ अतिव्याप्तिः. इन्द्रियत्वमात्रम् एव इति उक्तः चेत् चक्षुः आदौ अतिव्याप्तिः भवति.
हा, इति जानीमः चक्षुः इन्द्रियमस्ति. हा, तदर्थं किं वक्तव्यमस्ति? हा, तद् सा अतिव्याप्तिः निवारणीया. इन्द्रियेषु अतिव्याप्तिः भवति खलु, केवलम् इन्द्रियत्वम् इति वदामश्चेत्, तदर्थं सा अतिव्याप्तिः निवारणीया इति कृत्वा अग्रे किमस्ति इति पठतु.
अतः सुखादिप्रत्यक्षजनकत्वमपि दातव्यम्. प्रत्यक्षजनकत्वम् अपि दातव्यम्. इन्द्रियत्वं केवलम् इन्द्रियत्वं मात्र न, प्रत्यक्षजनकत्वमपि दातव्यम् इति अतिव्याप्तदोषं निवारयितुम् एवं वक्तव्यम्.
हा, इन्द्रियेषु अतिव्याप्तिनिवारयितुं सुखादिप्रत्यक्षजनकत्वम् इति वक्तव्यं भवति. आत्मनि शरीरे इत्यादिषु यानि यानि कारणानि सन्ति सुखस्य, तान् निवारयितुं पुनः इन्द्रियत्वम् इति वक्तव्यं भवति. अतः दलद्वयस्यापि आवश्यकता अस्ति. अस्तु, अत्र प्रश्नः उदेति यत् इन्द्रियत्वम् इति वदामश्चेत् चक्षुषि इत्यादिषु इन्द्रियेषु अतिव्याप्तिः इति कृत्वा सुखादिप्रत्यक्षजनकत्वम् इति दातव्यं भवति इति अस्ति. परन्तु चक्षुः अपि सुखस्य कारणमस्ति खलु, तर्हि सुखादिप्रत्यक्षजनकत्वं चक्षुषि अस्ति खलु इति प्रश्नः आगतः आसीत्. तेषु दिनेषु वर्गे बहु चर्चां कृतवन्तः, तत्र किं चिन्तनम्?
प्रत्यक्षजनकं नास्ति इति.
हा हा, वेङ्कटेश् महोदय किञ्चित् वदति वा?
तत्र यद् प्रत्यक्षं कारणम् अस्ति तदेव तत्र कारणम् इति स्वीकार्यं. तत्र तत् निमित्तकारणं भवितुमर्हति, परन्तु साक्षात् जन तत्र चक्षुषा तादृश ज्ञानं सुखम् अहं सुखी तत्र सुखम् इति विषयस्य ज्ञानं न उत्पाद्यते चक्षुषा साक्षात् इति कारणात् तत्र चक्षुः साक्षात् रूपप्रत्यजनकं नास्ति इति तत्र.
हा, सत्यं. यद्यपि चक्षुः इति निमित्तकारणं स्यात् तथापि साक्षात् कारणं नास्ति सुखं प्रति. तत्र करपत्रेषु अस्ति, सारांशत्वेन वदामि. तत्र प्रथमतया आत्ममनसंयोगः इति जायते, तदा मनः चक्षुरिन्द्रियेण सह संयुज्यते, तदा चक्षुः वस्तुना सह चक्षुवस्तुनः संयोगः जायते, तदा एव सुखम् उत्पद्यते आत्मनि. वस्तुतः यद्यपि चक्षुः केवलं वस्तुनः रूपं प्रत्यक्षीकरोति, रूपं जनयति, तदर्थमेव अग्रिमवाक्ये उक्तं चक्षुः रूपप्रत्यक्षजनकं, तावदेव. अस्तु, तर्हि वस्तुतः तद्वस्तु स्वयं सुखस्य कारणमस्ति, न तु चक्षुः इति अपि एका वार्ता अस्ति. चित्रं पश्यामः, किमपि चित्रं, तेन सुखं जायते चेत् यद्यपि चक्षुषा तद् जातं तादृशसुखं, तथापि चक्षुषा रूपस्य प्रत्यक्षमेव जायते, चित्रस्य रूपस्य प्रत्यक्षं. किन्तु चित्रे यद्वस्तु अस्ति तदेव कारणं भवति इति ते वदन्ति सुखं प्रति. अतः सुखं प्रति चक्षुः कारणं नास्ति, तर्हि सुखादिप्रत्यक्षजनकत्वं चक्षुषि नास्ति इति एकमस्ति. अपि च यत्र कुत्रापि लक्षणवाक्यमस्ति, लक्षणवाक्ये साक्षात् कारणम् असाधारणकारणम् एव निवेशनीयं भवति इति कृत्वा मनः तादृशसाक्षात् कारणमस्ति सुखं प्रति, अपि च असाधारणकारणमपि अस्ति. मनः नास्ति चेत् सुखं कः गृह्णाति खलु इति वार्ता. हा इति कृत्वा सुखादिप्रत्यक्षजनकत्वं मनसि अस्ति, इन्द्रियत्वमपि मनसि अस्ति.
अनुभवम् इति वक्तुं शक्यते वा? मनः प्रत्यक्षं नास्ति, साक्षात् अनुभवः एव मनः आत्मा एव.
मनः सुखस्य अनुभवं जनयति. अनुभवः इत्युक्ते किं? प्रत्यक्षमेव ज्ञानं खलु. अहं सुखी, अहं सुखी इति ज्ञानं मनः जनयति आत्मनि. अस्तु, समीचीनं. तर्हि इति दलद्वयम् अपि अपेक्षितम्, अपि च दलद्वयेन कुत्र कुत्र अतिव्याप्तिः निवारिता इति अस्ति अत्र. अस्तु, अग्रे सरेम. तर्हि विद्याशङ्करमहोदय, तर्हि अग्रिमपरिच्छेदद्वयं कृपया.
तच्चेति एकैकस्य आत्मनः एकैकं मनः अपेक्षितम् इति असकृत् आवेदितम् एव. अतश्च आत्मनाम् अनन्तत्वात् तावन्ति मनांसि अपेक्षितानि, अतः अनन्तमिति युक्तम्. दक्षिणवाक्ये द्वितीयबिन्दुः आसीत् तच्च प्रत्यात्मनियतत्वात् अनन्तम् इति आसीत्. तस्य विवरणम् अत्र अस्ति. तच्च इति प्रत्यात्मनियतत्वम् इत्युक्ते एकैकस्य आत्मनः प्रत्येकस्य आत्मनः एकैकं मनः तत्र संयुक्तः अस्ति इति अपेक्षितम् इति पूर्वमेव उक्तम्. एकैकस्य आत्मनि आत्मना सह एकं शरीरमपि अस्ति, एकैकं मनः अपि तत्र अपेक्षितम्. अतश्च आत्मनः अनन्ताः यानि आत्मनान् सन्ति तावन्ति मनांसि अपि आवश्यकम्, अतः मनांसि अपि अनन्तम् इति उक्तम्.
समीचीनम्. अस्तु, इति अनन्तम् इति विषयः. अग्रे तस्य परिमाणं किम् इति अग्रे पश्येम. अग्रे पठतु महोदय.
तस्य परिमाणमाह परमाणुरूपम् इति मध्यमपरिमाणवत्वे दर्शितरीत्या अनित्यत्वम् आपद्येत्. अन्योपि मध्यमपरिमाणवतः विशेषः दृष्टः, सः अवयवैः उत्पद्यते यथा घटः. तस्य च प्राग् अभावः भवति, ध्वंसु अपि भवति. मनसु अपि मध्यमपरिमाणवत्वे अनन्तानि मनांसि इति अनेके अवयवाः, तस्य प्राग् अभावः प्रध्वंस अभावः इति इमे स्वीकार्याः भवेयुः इति परमाणुरूपता तस्य स्वीकृता. परमाणुरूपत्वेन एव तस्य नाश असम्भवात् नित्यत्वम् अपि आह नित्यम् इति. तृतीयबिन्दुः आसीत् परमाणुरूपं नित्यम् इति तस्य विवरणं. किमर्थं परमाणुरूपं? मध्यमपरिमाणवत्वमस्ति चेत् सा अनित्यत्वम् इति स्वीकार्यं भवति. यथा अन्ये मध्यमपरिमाणवत्वः विशेषः यथा घटः अस्ति, घटस्य अवयवाः सन्ति, घटस्य प्रागभावः भवति, घटस्य जन्यं भवति, अपि जन्यं भवति चेत् ध्वंसमपि भवितुम् अर्हति. ततः मनसस्य तथा न भवेत्, न भवति इति मध्यमपरिमाणत्वं न स्वीक्रियते. मनः परमाणुरूपम् इति स्वीकुर्मः चेत् तस्य प्रागभावः न भवति, प्रध्वंसभावः इति सर्वं न भवति. अपि च परमाणुरूपत्वात् नित्यमपि तत्र आगच्छति.
समीचीनं. तर्हि मनः वस्तुतः अनुमानेन जातं द्रव्यं खलु. सुखः सुखमस्ति, दुःखम् अस्ति, तद् कथं जानामि? किमपि इन्द्रियं स्यात् तस्य ग्रहणार्थम् इति कृत्वा मनः इति अनुमानेन कल्पितः पदार्थः. यत्र यत्र अनुमानेन पदार्थः कल्पितः तत्र लाघवम् इष्यते, न तु गौरवम् इति वयं पूर्वमपि दृष्टवन्तः. अस्तु, मनः अस्तु अनन्तत्वं तु आगच्छति मनसः, यतोहि प्रत्येकं जीवात्मनः एकं मनः भवेत् एव, नो चेत् सर्वे सर्वं न अनुभवामः खलु. मम आत्मनि यत्किमपि अस्ति, अपरेषाम् आत्मनि यत्किमपि अस्ति, अहं न अनुभवामि इति कृत्वा मनसः अनन्तत्वं तु आगतम् इति गौरवं तत्र अस्ति. परन्तु इतोपि लाघवम् इच्छन्ति ते, यतोहि मनसः अवयवनिर्माणार्थं कापि युक्तिः नास्ति. तदर्थं लाघवार्थं मनसः अवयवाः न सन्ति इति कृत्वा, अवयवाः न सन्ति चेत् तत्र तादृश अवयवपरम्परा नास्ति, जन्यं नास्ति इति कृत्वा नित्यपदार्थः अपि च परमाणुरूपमपि मध्यमपरिमाणं मध्यमपरिमाणत्वं निवारितम् इति आगतम्. अस्तु
भगिनि, अत्र भगिनि अत्र परममहत् परिमाणमपि स्वीकर्तुं शक्नुमः खलु, नित्यत्वं साधनीयं चेत्. परन्तु अत्र न स्वीकृतं यतोहि तत्र सुखदुःखं तु यत्र शरीर अवच्छिन्ना आत्मा अस्ति तत्रैव तस्य अनुभवः भवति इति कृत्वा तत्र विभुत्वम् इति न स्वीकृतं वा?
हा सत्यं भगिनि, जीवः विभुत्वं किमर्थं न स्वीकृतम् इति खलु?
सत्यम्, इत्युक्ते नित्यत्वं तु अवगच्छामि, परन्तु विभुद्रव्यम् अपि नित्यं भवितुम् अर्हति, परमाणुः अपि नित्यं भवितुम् अर्हति, इत्युक्ते परममहत् अपि च परमाणु इति द्वयमपि स्वीकर्तुं शक्नुमः खलु, यथा तत्र जीवात्मा जीवात्मनः विषये अत्र वयं परममहत् परिमाणम् इति स्वीकृतवन्तः.
इत्युक्ते परममहत् इत्यस्य स्वीकारेण पुनः सः दोषः आगच्छति, सर्वज्ञत्वम् इति, एकः मनः सर्वं जानाति इति आगच्छति, तथापि नास्ति खलु.
सत्यम्, अस्तु भगिनि,
सर्वेषां हा, अपि च एतेषां तर्कानुगुणं ज्ञानं क्षणिकम् अस्ति, अतीव लघु कालिकदृष्ट्या, एतत् सर्वं दृष्ट्वा मनसः परमाणुपरिमाणत्वमेव भवेत् इति. अस्तु अस्तु, इति मनसः निरूपणं सञ्जातं. तर्हि हा, अनेन द्रव्यनिरूपणमपि समाप्तं, नवानां द्रव्याणामपि निरूपणं दृष्टवन्तः. तर्हि विद्याशङ्करमहोदय,
भगिनि प्रश्नः अस्ति, लक्षणवाक्यम् इत्युक्ते सुखादि उपलब्धिसाधनम् इन्द्रियं मनः तावदेव किल?
वस्तुतः ततः अग्रे अपि यत्किमपि अस्ति तदपि अस्ति भगिनि, तर्कसङ्ग्रहे तथा दर्शितम् इति.
भगिनी एकं, सुखादि इत्युक्ते सुख दुःख इच्छा द्वेष प्रयत्नः खलु?
सत्यं, सुख दुःख इच्छा द्वेष प्रयत्नः, सत्यं महोदय.
धर्माधर्मकरः तु आत्मनि, आत्मनि एव खलु?
धर्म अधर्म संस्काराः सन्ति आत्मनि एव, परन्तु मनसा न गृह्यते, अतीन्द्रियाः इति. रत्ना भगिनी.
यत् बोल्ड् अक्षराणि सन्ति ते तर्कसङ्ग्रहवाक्यानि इति जानामि, किन्तु लक्षणवाक्यम् इत्युक्ते तदपि भव्यमिति वा?
सत्यं, तदपि अन्तर्भूतम् अस्ति.
अस्तु,
लक्षणग्रन्थे इति वदन्ति खलु ते, तथा कैश्चित् उक्तमासीत् ग्रन्थः इत्युक्ते वाक्यानां समूहः.
अस्तु अस्तु
इति अस्ति. अस्तु भगिनि, तर्हि रत्ना भगिनी भवती एव वदतु, वायोः लक्षणे तटस्थलक्षणं किम् आसीत्? रूपरहितत्वे सति स्पर्शवत्वं वायोः लक्षणम् इति आसीत् खलु? हा, तद्वद् मनसः विषये कथं वक्तुं शक्नुमः? सुखादि उपलब्धिसाधनत्वम् इति एकं दलम्, इन्द्रियत्वम् इति अपरं दलम्.
प्रश्नः नावगतं भगिनि, क्षम्यताम्.
तटस्थलक्षणम् इति यद्वदामः, तादृशीं शैलीम् अनुसृत्य वाक्यं कथं भवति? रूपरहितत्वे सति स्पर्शवत्वं वायोः लक्षणम् इति भवति खलु?
आम्.
हा, तद्वत्
सुखादि उपलब्धिसाधनत्वं इन्द्रियत्वं मनसः लक्षणं,
तत्र सति इति निवेशनीयः शब्दः. बालसुब्रह्मण्य महोदय प्रयत्नं करोति वा?
सुखादि उपलब्धि साधनत्वं
साधनत्वे सति
साधनत्वे सति इन्द्रियत्वं
मनसः लक्षणम्
इन्द्रियत्वं मनसः लक्षणम्
हा इति एव अस्ति तटस्थलक्षणरूपेण लक्षणवाक्यस्य कथनं समीचीनमस्ति. अनेन अग्रिमपृष्ठे गुणनिर् प्रश्नः अस्ति वा?
प्रश्नः अस्ति भगिनि, आत्मनिरूपणविषये तत्समये तु तस्य
भगिनि भगिनि पुनः
आत्मनिरूपणसमये तस्य अनुपरिमाणं न भवेत् इति उक्तं, कितो यतोहि तदा एकदेशे एव सुखं वा दुःखं वा अनुभूयते सर्वस्मिन् जीवे न इति तर्कः आसीत् तत्र.
जीवात्मनः अणुपरिमाणं नास्ति यतोहि मनः वत् अणुपरिमाणं भवति चेत् तर्हि शरीरस्य एकस्मिन् देशे एव यत्किमपि जायते तस्यैव अनुभवः भवति, किन्तु तथा नास्ति खलु?
मनसः विषये तादृशः तर्कः भवति वा? इत्युक्ते मनः तु परिमाण अणुपरिमाणवत्.
सत्यम्, अणुपरिमाणवत्, अपि च मनसि क्रिया अस्ति खलु, मूर्तद्रव्यं मनः, तेषां मतानुगुणं तस्य मनः यत्र कुत्रापि ज्ञानम् अपेक्षितं तत्र सञ्चरति इति, इन्द्रियसन्निकर्षः भवति तदा मनसा मनः इन्द्रियतयोः संयोगः वेगेन भवति, तदा क्षणिकं ज्ञानम् उत्पद्यते इति ते वदन्ति. मनः अणुपरिमाणवत् परमाणुपरिमाणवत् अस्ति किन्तु वेगेन सर्वशरीरसञ्चारी भवति मनः.
अस्तु अस्तु, वस्तुतया एकस्मिन् क्षणात्मकज्ञानम् इति ज्ञायते, परन्तु एकस्मिन् देशे वर्तते इति कथं वक्तुं शक्नुमः? वेगशाली इत्यस्मात् सर्वत्र भवति.
सत्यं, यत्र यत्र ज्ञानम् उत्पादनीयं भवति तत्र तत्र गच्छति इति.
परन्तु वस्तुतः एकस्मिन् देशे एव तस्य उपस्थित्वं वा?
मनसः वा?
हा,
न तथा नास्ति. तत्र मनः शरीरसम्बद्धम् अस्ति, अस्तु, आत्मसम्बद्धम् अस्ति. प्रत्येकम् आत्मनः जीवात्मनः एकं मनः अस्ति.
आमाम्.
परन्तु तत्र यत्र कुत्रापि येन केनचिदपि इन्द्रियेण ज्ञानं जन्यं भवति, अहं किमपि पश्यामि किमपि शृणोमि तत्र तत्र मनः गच्छति वेगेन.
अस्तु अस्तु,
मनः मूर्तद्रव्यम् अस्ति तथा कर्तुं शक्नोति, किन्तु आत्मा मूर्तद्रव्यं नास्ति खलु.
अस्तु भगिनि, धन्यवादः
इति. अस्तु, गुणनिरूपणम् इति अग्रिमः विषयः. जयन्ती भगिनी, भवत्याः एव क्रमः, अग्रे पठतु. अग्रिमपृष्ठे
अस्तु गुणनिरूपणम् इति, गुणनिरूपणं खलु भगिनी?
हा,
एतावता ग्रन्थेन इत्यस्मात् वा?
सत्यम्.
एतावता ग्रन्थेन नवद्रव्याणि निरूपितानि. सम्प्रति क्रमप्राप्ते गुणनिरूपणे आदिमं रूपं लक्षणविभागाभ्याम् आह. चक्षुर्मात्रग्राह्यो गुणो रूपं, तच्च शुक्लनीलपीतरक्तहरितकपिशचित्रभेदात् सप्तविधं. पृथ्वीजलतेजो वृत्ति, तत्र पृथिव्यां सप्तविधम्. अभास्वरशुक्लं जले, भास्वरशुक्लं तेजसि. इदानीं सर्वाणां द्रव्याणां निरूपणम् अभवत्, इदानीं गुणस्य निरूपणम् आरभते. प्रथमं तु रूपम् इति गुणः. पूर्वमपि दृष्टवन्तः रूपस्य ग्राहणं चक्षुषा भवति इति. रूपं शुक्लनीलपीतरक्तहरितकपिशचित्र इत्युक्ते मिश्रण रूपमस्ति. भेदात् सप्तविधरूपाणि सन्ति. कुत्र वर्तते, कुत्र कुत्र वर्तते, पृथ्वी जल तेजसि वर्तते, तत्र पृथिव्यां सप्तविधम् इत्युक्ते सप्तविधरूपाणि पृथिव्याम् अस्ति. जले तु अभासुरशुक्लरूपं अभासुरशुक्लरूपे रूपेण अस्ति, तेजसि भासुरशुक्लरूपम्
इति अस्ति इति रूपस्य निरूपणात् गुणनिरूपणम् आरब्धवन्तः प्रथमतया. अस्तु, चक्षुर्मात्रग्राह्यो गुणो रूपम्. अत्र वयं पश्यामः यत् मात्रशब्दः अस्ति अस्माकम्
इत्युक्ते रूपं चक्षुषा एव गृह्यते
इति अर्थः. अग्रे पठतु भगिनि अग्रिमपरिच्छेदम्.
इह सम्प्रदाये मातृपदस्य इतरयोगः व्यवच्छेदश्च अर्थः, तस्मिन् च तत्तत् पदार्थान्वयः इत्यादि शब्दबोधरीतिम् अनुसृत्य अर्थवर्णनं कुर्वन्ति, परन्तु ग्रहणक्लेश परिजिहीर्षुणा मया नैतद् उच्यते इति अन्येभ्यः तत् परग्रन्थेभ्यः अवगन्तव्यम्. एतत् लक्षणनिरूपणप्रकारश्च अस्मत् सम्मतः इत्थम्.
अत्र मुख्यवार्ता का इति चेत् मात्रपदस्य इतरयोगव्यवच्छेदश्च इति, तद् अवगम्यते खलु भगिनि?
इतरयोगः व्यवच्छेदश्च अर्थः इत्युक्ते अन्येषां ग्रहणं नास्ति इति वा?
इतरयोगः इत्युक्ते योगः इत्युक्ते सम्बन्धः, अन्यस्य सम्बन्धः नास्ति इति अवगन्तव्यः. चक्षुर्मात्रग्राह्यो गुणो रूपम् इत्युक्ते रूपस्य चक्षुषा सह एव सम्बन्धः, इतरयोगव्यवच्छेदः. व्यवच्छेदनम् इत्युक्ते भग्नं भवति इति, अपरैः इन्द्रियैः सह सम्बन्धः न वर्तते.
तस्मिन् च तत्तत् पदार्थान्वयः इत्यादि शब्दबोधरीतिम् अनुसृत्य,
इत्युक्ते अत्र अहं यत्किञ्चित् लिखितवती आसम् मम टिप्पणीं तद्वदामि. अस्माकं प्रायः तत्र अवधानं न स्यात्, किन्तु सर्वेषां शास्त्राणां काचित् शैली भवति शब्दबोधं जनयितुं, तर्हि वाक्यजन्यशब्दबोधः भवति. अस्तु, रामः वनं गच्छति इति वाक्यमस्ति सामान्यवाक्यं. न्यायशैल्या वननिष्ठकर्मतानिरूपितगमनानुकूलकृतिमान् रामः इति भवति. अस्तु, व्याकरणदृष्ट्या रामकर्तृकः वनकर्मकः गमनानुकूलव्यापारः इति भवति. तादृशप्रत्येकं शास्त्रस्य एकविध शब्दबोधः भवति, वाक्यजन्यशब्दबोधः. तेन तद् किं वक्तुम् इच्छति इति चेत् तत्र मात्रशब्दस्यापि तादृश कश्चन अर्थः अस्ति, शब्दबोधः प्राप्यते मात्रशब्देनापि. मात्रशब्देन इतरयोगव्यवच्छेदः इति शब्दबोधः भवति.
अस्तु, अत्र मातृशब्दस्य कारणम् इत्युक्ते किमर्थं मातृशब्दम् अत्र उपयुज्यते, तत् अवशिष्टं न उक्त्वा, इत्युक्ते अत्र परिजिहीर्षुणा कृते तत्र परिहर्तुम् इच्छति इति किमपि अस्ति मम
आम् सत्यं भगिनि, तत्र सनन्तप्रत्ययः अस्ति, परिहर्तुम् इच्छति लेखकः. इत्युक्ते ग्रहणक्लेशं परिहर्तुम् इच्छति, तदर्थम् एतत् सर्वं न उच्यते,
भिन्न आकृतिम् उपयुज्यते इति.
तर्हि मात्रशब्दस्यापि तादृशवाक्यजन्यबोधः किमपि स्यात्, कोऽपि स्यात्, परन्तु अस्माभिः सारल्यार्थम् इतरयोगव्यवच्छेदः इति अवगन्तव्यः. अस्तु अस्तु, अनेन अवगन्तुं शक्नुमः इति वार्ता अस्ति. इतः अग्रे सरेम, तर्हि निरञ्जनमहोदय अग्रे पठति वा?
चक्षुरेव चक्षुर्मात्रम् इति ततः वा? चक्षुरेव चक्षुर्मात्रम् इति भवेत् विग्रहः. ग्राह्यमिति पदे च ग्रहधातुर्वर्तते ण्यत् प्रत्ययश्च. धातोः प्रत्यक्षमर्थः प्रत्यक्षमर्थः ण्यत् प्रत्ययस्य कर्मत्वमर्थः. प्रत्यक्षकर्मत्वं च विषयत्वरूपमिति वक्ष्यमाणत्वात् ग्राह्यपदेन प्रत्यक्षविषयत्वं लब्धं तच्च रूपनिष्ठं. चक्षुषा एव ग्राह्यमिति वर्णने तृतीया वर्तते. तया तृतीयया करणत्वं साधनत्वम् अवगम्यते. तच्च चक्षुर्निष्ठप्रत्यक्षनिरूपितं तथा च एवं भवेत् स्थितिः. चक्षुरेव चक्षुर्मात्रम् इति भवेत् विग्रहः. चक्षुरेव चक्षुर्मात्रः इत्युक्ते चक्षुरेव इति तादृशविग्रहः लक्षणवाक्ये अस्ति. चक्षुरेव अथवा चक्षुर्मात्रम् इति तस्य अर्थः किं? ग्राह्यम् इति पदे
अत्र वस्तुतः विषयान्तरं जातं. प्रथमतया चक्षुर्मात्रग्राह्यो गुणो रूपम् इति वाक्ये कति दलानि सन्ति?
एकमेव. क्षम्यतां, द्वयं रूपं गुणमस्ति, अपि रूपं चक्षुषा एव ग्राह्यते इति दलद्वयम् अस्ति इति वा?
वस्तुतः दलत्रयम् अस्ति. प्रथमं चक्षुग्राह्यम्, अनन्तरं
चक्षुर्मात्रग्राह्यं चक्षुर्मात्रग्राह्यं, तदनन्तरं गुणमपि इति वा?
गुणमपि इति. अस्मिन् परिच्छेदे वस्तुतः ग्राह्यम् इति प्रथमदलं चक्षुर्ग्राह्यम् इत्यस्य विवरणं किञ्चित् दीयते. अग्रे पठतु महोदय.
ग्राह्यमिति पदे च ग्रहधातुर्वर्तते ण्यत् प्रत्ययश्च. ग्राह्य इत्युक्ते तत्र धातुः अस्ति ग्रह घ्र, तत्र ण्यत् प्रत्ययश्च अस्ति. ग्राह्य इत्युक्ते ण्यत् इति गृह्यते न, किन्तु ग्राह्यति अन्यपदेन गृह्यते इति वा?
इत्युक्ते सत्यं, ग्राह्य इत्युक्ते कर्मण्यर्थक प्रत्ययः, ग्राह्य ण्यत् प्रत्ययः इत्युक्ते किमपि कार्यं जायते, अत्र कार्यमस्ति प्रत्यक्षम् इति. तस्य कार्यस्य कर्मत्वेन किमपि स्यात्, तद् किम् इत्युक्ते रूपम्.
रूपम् अस्तु. धातोः प्रत्यक्षम् अर्थः, प्रत्ययस्य कर्मत्वम् अर्थः, प्रत्यक्षकर्मत्वं च विषित्वरूपमिति. पुनरेकवारं कृपया वदतु भगिनी.
ग्रहधातुः वर्तते.
अस्तु
अस्तु, तद् किमपि गृह्णाति इति.
आम्, तत्र कर्तरि भवति.
चक्षुः किमपि गृह्णाति इति.
अस्तु
अस्तु, तस्य ग्रहणकार्यस्य कर्म किं, कर्म किम् इति प्रश्ने कृते तत्र ण्यत् इति योजयित्वा ग्राह्यम् इति आगच्छति.
अस्तु 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 अस्तु.
किं किं ग्राह्यं? रूपं ग्राह्यं.
रूपं ग्राह्यम् अस्तु. अस्तु, तत्र ण्यत्प्रत्ययस्य कर्मत्वम् अर्थः. अस्तु, प्रत्यक्षकर्मत्वं च विषयत्वरूपम् इति वक्ष्यमाणत्वात् ग्राह्यपदेन प्रत्यक्षविषयत्वं लब्धम्. प्रत्यक्षविषयं ग्राह्यपदेन रूपमेव अस्तु, चक्षुषा प्रत्यक्षविषयत्वं, चक्षुषा रूपस्य रूपस्य ज्ञानस्य रूपस्य प्रत्यक्षज्ञानं भवति इति.
फलितार्थः सः एव, किन्तु अत्र इतोपि किञ्चित् उक्तं यत् प्रत्यक्षकर्मत्वम् इत्युक्ते किम्? प्रत्यक्षविषयत्वम् इति तावदेव. प्रत्यक्षमित्युक्ते प्रत्यक्षमित्युक्ते ज्ञानं, ज्ञानस्य विषयः स्यात्. विषयः इति यत्किमपि अस्ति तस्मिन् विषयत्वम् अस्ति. तर्हि ग्राह्यपदेन प्रत्यक्षविषयत्वं सूचितम् इति.
अस्तु. अस्तु. तच्च रूपनिष्ठम् अस्तु. तत् एतत् सर्वं रूपे अस्ति. चक्षुषा एव ग्राह्यम् इति, एतावत् केवलं चक्षुषा ग्राह्यम् इति, रूपं ग्राह्यम् इति तस्य वर्णनं भवति वा?
सत्यं. चक्षुषा किं ग्राह्यं? रूपं.
रूपं, रूपस्य प्रत्यक्षज्ञानं चक्षुषा भवति इति.
सत्यम्.
अस्तु. चक्षुषा एव ग्राह्यम् इति वर्णने तृतीया वर्तते. तया तृतीयया करणत्वं साधनत्वम् अवगम्यते. चक्षुषा एव ग्राह्यम् इति वर्णने तृतीया वर्तते. आम्. किन्तु तया तृतीयया करणत्वं साधनत्वम् अवगम्यते.
इत्युक्ते ग्राह्यम् इति कर्मणि प्रयोगे कोऽपि तृतीयान्तशब्दः भवेदेव खलु? चक्षुषा ग्राह्यम्. अपि च यथा मनसः लक्षणे वयं दृष्टवन्तः सुखादि उपलब्धि साधनम् इति अस्ति खलु, तस्मिन्नेव अर्थे तृतीया विभक्ति अस्ति, करणत्वं साधनत्वं.
करणत्वं साधनम्. अस्तु. अस्तु. हा, तत्र साधनत्वम् इत्युक्ते तत्र प्रत्यक्षज्ञानजनक जनकम् इति वा, जनकः इति? अस्तु. तच्च चक्षुर्निष्ठ प्रत्यक्षनिरूपितं, चक्षुर्निष्ठ प्रत्यक्षनिरूपितं तथा च एव भवेत् स्थितिः. अतः तच्च चक्षुर्निष्ठ प्रत्यक्षनिरूपितं.
तच्च चक्षुर्निष्ठं किं चक्षुर्निष्ठम्?
साधनत्वं. साधनत्वं चक्षुर्निष्ठ.
चक्षुर्निष्ठम् अपि च प्रत्यक्षनिरूपितम् इति वार्ता अस्ति खलु?
आमामां. चक्षुर्निष्ठम् अपि प्रत्यक्षनिरूपितम्. आम्. साधनत्वं चक्षुर्निष्ठम् इति, प्रत्यक्षं प्रत्यक्ष अपि निरूपितं तथा च एवं भवेत् स्थितिः. अस्तु. अतः चक्षुर्मात्रग्राह्यो.
एकनिमिष, भवता यत् पठितम् एतत् प्रथमतलं चक्षुर्ग्राह्यम् इति.
अस्तु.
अस्तु. अधस्तनचित्रमपि तदेव प्रदर्शयति. किञ्चित् चित्रं विवृणोति वा?
चक्षुनिष्ठजनकता निरूपितजन्यता आश्रयः प्रत्यक्षनिष्ठविषयता निरूपितविषयता विषयता आश्रयत्वं रूपस्य लक्षणम्.
रूपस्य लक्षणम् इति प्रथमदलमस्ति.
प्रथमदलम् अस्ति. अस्तु.
तर्हि चक्षुर्ग्राह्यम् इत्यस्य विवरणं भवता दत्तम्. इतः अग्रे गत्वा इतोपि दलद्वयमस्ति, तत् पश्येम.
अस्तु.
अस्तु. हा, अग्रे अखिला भगिनी पठति वा?
आं भगिनि. एवकारार्थकमात्रपदश्रवणमपि प्रकृते वर्तते. तत्र लोके चैत्र चैत्र एव आयाति इत्युक्तौ तथा यथा चैत्रागमनं प्रतीयते तथैव चैत्रभिन्नः यः तस्य अनागमनम् अपि. तथैव प्रकृतेऽपि चक्षुषा एव ग्राह्यमित्युक्तौ यथा चक्षुषा ग्राह्यत्वं बोध्यते तथैव तदितर अग्राह्यत्वम् अपि. तथा च चक्षुरितराणि यानि घ्राणादीन्द्रियाणि तैः रूपस्य प्रत्यक्षं न भवति अथवा तैः जायमानं यत् प्रत्यक्षं तस्य विषयः रूपं न भवति इत्यर्थः फलति. इत्युक्ते अत्र मात्र इति पदं यद्वा लक्षणवाक्ये अस्ति तेन एवाकारार्थः सिद्ध्यति. इत्युक्ते यथा वयं व्यवहारे वदामः चैत्र एव आगच्छति इति वदामः चेत् चैत्रः इति कश्चन पुरुषः सः एव आगच्छति इति अस्ति. अपि च तेन एतदपि अवगन्तुं शक्नुमः यत् चैत्रं विहाय अन्य कोऽपि न आगच्छति, केवलं चैत्रः आगच्छति इति अपि. तद्वत् अत्रापि मात्रपदं मात्रपदेन अत्र एतदपि वयम् अवगन्तुं शक्नुमः यत् चक्षुर्भिन्न इन्द्रियं यत् इन्द्रियाणि यानि कानि सन्ति तैः रूपम् इति गुणस्य ज्ञानं न भवति, केवलं चक्षुषा एव भवति, इत्युक्ते चक्षुः एव तत् तस्य ग्राह्यं भवति, अन्य इन्द्रियैः तद् न गृह्यते इत्यपि वयम् अवगन्तुं शक्नुमः इति. तथैव अत्र चित्रमपि अस्ति यत् यथा पूर्वं निरञ्जनमहोदयेन उक्तं, तत्र चक्षुः एव रूपं ग्राह्यते इति चित्रमासीत् प्रथमम्. अत्र अस्ति तत्र ग्राणादि इन्द्रियैः रूपं न गृह्यते इति, तत्र ग्राणादि
ग्राणनिष्ठा इति करोतु भगिनि.
अस्तु भगिनि, हा, ग्राणनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिष्ठ विषयितानिरूपितविषयता आश्रयः गन्धः विषयता अभावः रूपम् इति इति अपि आगच्छति.
विषयताभाव आश्रयः रूपं
विषयताभावाश्रयताभाव आश्रयः रूपम्
रूपं तादृशविषयता यद् ग्राणेन जन्य जन्यज्ञाने अस्ति तादृशविषयता रूपे नास्ति इति प्रतीयते. अत्र रूपे केवलं विषयता अस्ति चक्षुजन्यज्ञानस्य विषयता, तादृशी विषयता एव अस्ति रूपे इति अत्र प्रतीयते इति द्वितीयतलम् अस्ति. अस्तु, अग्रे अपि पठतु भगिनि अग्रिमपरिच्छेदम्.
इत्यत्र सम्पन्नः एवं मूले चक्षुर्मात्रग्राह्यो गुणो रूपमिति लक्षणवाक्यं, तत्र चरमं गुण इति पदं, तदर्थस्य अपि लक्षणान्तर्भावः आवश्यकः, अन्यथा वक्ष्यमाना अतिव्याप्तिः भवेत् इति. तत्र दलद्वयम् इदानीं दृष्टवन्तः, वस्तुतः लक्षणवाक्ये दलत्रयमस्ति, गुणः इत्यपि एकं पदमस्ति, तदपि अत्र तत्र लक्षणवाक्ये अवश्यं भवति. तस्य यदा तद् नास्ति तर्हि अग्रे यत् अतिव्याप्तिविषये वयं चर्चां कुर्मः तस्य तद् आगच्छति इति कृत्वा गुणः इत्यपि तत्र लक्षणवाक्ये तत्र आवश्यकं भवति इति.
हा, समीचीनमस्ति. तर्हि अत्र ज्ञातवन्तः यत् अत्र दलत्रयमस्ति, वस्तुतः प्रत्येकं दलस्य महत्त्वं किं, किमर्थं लक्षणवाक्ये निवेशनीयम् इत्यस्य चर्चा अग्रे अस्ति. कुत्र कुत्र अतिव्याप्तिः भवति एकस्य दलस्य अपसरेण इति सर्वम् अग्रे पश्येम. अस्तु, अग्रे रूपलक्षणे दलसार्थक्यम् इति विषयः कियत् पर्यन्तं पठितुं शक्नुमः इति न जानामि, किन्तु चर्चा अवश्यं भवितुम् अर्हति, अपि च हा गभीरतया एव चर्चनीयः विषयः इति भाति. कोऽपि प्रश्नः वा एतावत्पर्यन्तम्?
एकः प्रश्नः अस्ति, वृत्ताकारः इत्यादि आकारः अथवा लम्बः तथाविध तानि रूपाणि इति न स्वीकुर्वन्ति किल न्यायशास्त्रे, अथवा गुणानि अपि न इति चिन्तयामि किल तस्य गुणेषु.
लम्बः इति गुणः वा?
आम्, लम्बः अथवा वृत्ताकारः अस्ति तथाविध.
लम्बः इति परिमाणविषये प्रायः आगच्छेत्, लम्बः इति परिमाणमपि सूचयति खलु.
हा हा, किन्तु आकारः वृत्ताकारः तथाविध
तद् रूपे नास्ति. एतेषां मतानुगुणं रूपम् इत्युक्ते वर्णः.
आम्,
तादृश आकारः इति कुत्र भवेत् इति चिन्तनीयं भवति. गुणः तु अवश्यम् अस्ति खलु?
अस्ति, किन्तु चतुर्विंशतिगुणेषु कुत्रापि प्रायः न आगच्छति इति चिन्तयामि.
अन्येषां किं चिन्तनम् अस्मिन् सन्दर्भे? अस्तु पश्येम कुत्र आगच्छति इति. हा सत्यं परिमाणम् इति एकं गुणमस्ति, तर्हि स्थूलः लम्बः प्रायः तत्र चिन्तयितुं शक्नुमः.
तत्र वृत्ताकारं तत्सर्वं तत्र आगच्छति खलु
आकारः. हा चिन्तनीयं भवति महोदय कुत्र कस्यां श्रेण्यां गच्छति इति.
मध्यमपरिमाणस्य अनेकाः विधाः सन्ति इति स्वीकृत्य कर्तुं शक्नुमः वा? आकारः इत्युक्ते कीदृश मध्यमपरिमाणम् अस्ति इति
प्रायः कर्तुं शक्यते. अपरस्मिन् वर्गे अपि एषः एव प्रश्नः आगतः, आकारः कुत्र इति. तर्हि नैयायिकानां मतानुगुणं रूपम् इत्युक्ते वर्णः एव रूपे न अन्तर्भूतः. प्रष्टव्यः महोदय, प्रष्टव्यः आकारः इति कुत्र आगच्छेत् इति. अस्तु अस्तु, अस्माकम् अधुना चर्चार्थं रूपम् इत्युक्ते वर्णः इत्येव स्वीकृत्य अग्रे गच्छेम. तर्हि रूपलक्षणे दलसार्थक्यम् इति विषयः. सरला भगिनी अग्रे पठति वा?
रूपलक्षणे दलसार्थक्यं तथा च प्रथमबिन्दुः अस्ति चक्षुरिन्द्रियनिष्ठजनकतानिरूपतजन्यता आश्रयप्रत्यक्षनिष्ठविषयतानिरूपतविषयतात्वे सति, यथा प्रथमं चित्रमस्ति. चक्षुर्नितर इन्द्रियनिष्ठजनकतानिरूपतजन्यता आश्रयप्रत्यक्षनिष्ठविषयितानिरूपतविषयतत्व अभावे तत्त्वे सति. द्वितीयचित्रम् अत्र अस्ति गुणत्वरूपस्य लक्षणम्
इति लक्षणवाक्यं, तटस्थलक्षणरीत्या खलु. रूपरहितस्पर्शवान् वायुः, रूपरहितत्वे सति स्पर्शवत्वं वायोः
लक्षणम्
इति तद्वदस्ति. अस्तु अग्रे.
समन्वयप्रकारश्च इत्थं चक्षुरिन्द्रियजन्यं यत् प्रत्यक्षम् इदं शुक्लं रूपमिति प्रत्यक्षं तन्निष्ठविषयतानिरूपतविषयतारूपे अस्ति. एवं चक्षुर्भिन्नं यत् इन्द्रियं घ्राणं तज्जन्यं यत् प्रत्यक्षम् अयं सुरभिगन्धम् इति प्रत्यक्षं तन्निष्ठविषयतानिरूपतविषयतागन्धे विषयता अभावलक्ष्यरूपे अस्ति. एवं रूपं गुण इति तत्र गुणत्वजाति अपि वर्तते इति समन्वयः. वयं पूर्वं पठितवन्तः समन्वय
लक्षणस्य लक्ष्ये विद्यमानत्वम् इति अस्ति भगिनि, इति भवती पठितवती वाक्ये यदस्ति वत्वम् इत्यादिकम् उपयुज्य तादृशप्रकारः.
अत्र दीर्घवाक्यम् अस्ति यथा चक्षुरिन्द्रजन्यं प्रत्यक्षं यद् ज्ञानम् अस्ति तत् रूपस्य वर्णम् अस्ति शुक्लं रूपमिति प्रत्यक्षं तत् रूपं निष्ठविषयतानिरूपितविषयतारूपे अस्ति. चक्षुर्भिन्न इन्द्रिय यस घ्राणम् अस्ति तस्य प्रत्यक्षं सुरभिगन्ध अस्ति घ्राणेन्द्रे, किन्तु तस्य अभावरूपे अस्ति.
कस्य अभावः?
रूपस्य अभावः घ्राणेन्द्रिये अस्ति
भगिनि. रूपस्य अभावः घ्राणेन्द्रिये इति वार्ता न, तत्र किम् अस्ति तन्निष्ठविषयितानिरूपितविषयता अभावः खलु. उपरितनचित्रं पश्यतु. घ्राणेन्द्रियेण एकं प्रत्यक्षं जन्यते घ्राणेन्द्रियेण खलु, तेन हा तस्य प्रत्यक्षस्य अथवा ज्ञानस्य विषयः कः?
घ्राणेन्द्रियज्ञानस्य विषयः गन्धः अस्ति, किन्तु रूपम् अस्ति.
हा विषयता अभावः रूपे, घ्राणेन्द्रियजन्य प्रत्यक्षस्य विषयः रूपं नास्ति, गन्धः एव.
गन्ध एव
इति वार्ता इति एव द्वितीयदलं तन्निष्ठ तन्निष्ठा इत्युक्ते चक्षुरिन्द्रियभिन्न निष्ठविषय विषयिता निरूपितविषयताभावः रूपे
रूपे
अस्तु इति अस्ति. अपि च रूपं गुणः इति कृत्वा रूपे कीदृशी जातिः वर्तते?
रूपत्वं जाति भवति.
रूपं गुणः इति चेत् गुणत्वं सत्यं गुणत्वम् इति जातिः रूपे वर्तते इति दलत्रयम् अत्र पुनः विवृतम् अस्ति. अस्तु इदानीं दलसार्थक्यम् इति विषयः. तत्र राजेन्द्रमहोदय अग्रे पठति वा?
आम् भगिनि. लक्ष्णे इतः भगिनि?
सत्यं महोदय.
अग्रिम पृष्ठे लक्ष्णे विद्यमानानां दलानाम् उपयोगं चिन्तयामः. दलनिर्देशे सङ्ख्याः अपि उल्लिखिताः सन्ति. ताः आदाय यदि चिन्तयामः तर्हि केवलम् एकम् आद्यप्रकारः, केवलं द्वितीयः, केवलं तृतीयः, प्रथमं द्वितीय चतुर्थः, प्रथमं तृतीय पञ्चमः, द्वितीय तृतीय षष्ठः.
लक्षणे विद्यमानानां दलानाम् इति उक्तं. कति दलानि सन्ति लक्षणे?
लक्षणे षड् दलानि सन्ति वा
महोदय? चक्षुर्मात्रग्राह्यो गुणो रूपम् इति लक्षणवाक्यं.
दलत्रयमस्ति.
अस्तु तर्हि प्रत्येकं दलं पृथक् पृथक् स्वीकृत्य अथवा दलद्वयं स्वीकृत्य चिन्तनं कुर्मः इति अस्ति अत्र.
पर्म्युटेशन् काम्बिनेशन्.
पर्म्युटेशन् काम्बिनेशन् एव सत्यं. हा प्रथमदलम् इति किम्?
चक्षुर्मात्र ग्राह्य आद्य
प्रथमदलं किम् आसीत्? निरञ्जनमहोदयेन यत् पठितं चक्षुर्ग्राह्य इति प्रथमदलं खलु? हा चक्षुर्ग्राह्य इति प्रथमदलम् आद्यः प्रकारः. द्वितीयदलं किम् आसीत्?
चक्षुर्मातृग्राह्यगुणं.
एकनिमिष. प्रथमदलम् अस्ति चक्षुर्ग्राह्यम् इति. अस्तु तर्हि प्रथमतया प्रथमदलम् एव केवलं प्रथमदलं स्वीकृत्य आद्यः प्रकारः आदिमः प्रकारः निर्मीयते. द्वितीयदलमस्ति चक्षुर्मात्र इति. अस्तु तद् स्वीकृत्य द्वितीयप्रकारः चिन्तनार्थं. तृतीयदलं किमस्ति?
चक्षुर्मातृग्राह्यगुणम्.
हा तृतीय तत् सर्वं त्यजतु. प्रथमदलं द्वितीयदलं त्यजतु. तत्र गुणः इति तृतीयदलमस्ति. अस्तु केवलं तृतीयदलं स्वीकृत्य चिन्तनम् अस्माकं तृतीयः प्रकारः भवति. चिन्तनविधिः काः इति अत्र के इति. प्रथमदलं प्रथमं स्वीकृत्य चिन्तयामः. द्वितीयदलम् एव स्वीकृत्य चिन्तयामः. तृतीयदलं स्वीकृत्य चिन्तयामः. तदनन्तरं
प्रथमं द्वितीय मातृग्राह्यं अथवा एवं मातृ.
हा ग्राह्य अपि च मात्र इति चतुर्थचिन्तनप्रकारः. अनन्तरम्
अनन्तरं भवति ग्राह्य रूपं स्वीकृत्य तत् पञ्चमं दलं.
हा ग्राह्य अपि च गुणः. गुणः इति तृतीयदलं खलु?
आम् आं भगिनि. ग्राह्य गुण
हा गुणः इति स्वीकृत्य चिन्तनं. ततः अग्रे
अग्रे मात्र एवं गुणः षष्ठ दलं.
षष्ठप्रकारः अस्ति. द्वितीयदलं तृतीयदलम् इति स्वीकृत्य षष्ठप्रकारकं चिन्तनं. अस्तु तर्हि प्रथमप्रकारकचिन्तनं कथं भवति इति भवान् एव प्रथमबिन्दुं पठतु तत्र.
एते षट् प्रकाराः सम्भाव्यन्ते. तत्र दलसार्थक्यं चिन्त्यते. चक्षुर् इन्द्रियनिष्ठ जनकतानिरूपित जन्यता आश्रय प्रत्यक्ष निष्ठ विषयिता निरूपित विषयत्वम् एव लक्षणम् अस्तु चेत् घटो अपि चक्षुषा गृह्यते इति घटे अतिव्याप्तिः. अस्तु प्रथमं दलम् आसीत् ग्राह्यं. ग्राह्यं यथा चक्षुर्निष्ठ तत् एव स्वीकुर्मः चक्षुर इंद्र निष्ठ जनकता निरूपित निरूपित जन्यता आश्रय प्रत्यक्ष निष्ठ विषयता निरूपित विषयत्वम एव लक्षणम अस्तु। अत्र तो विषयत्वम इत्युक्ते ग्राह्यम ग्रहणं ग्रहणं लक्षणम अस्तु। तत्र चक्षुषा तु घटम् अपि गृह्यते, तत्र तत्र रूपं नास्ति। यथा घटं गृह्णामः तत्र रूपं रूपं नास्ति, तथा तत् कारणतः तत्र अतिव्याप्तिदोषः भवति। यथा चक्षुर्ग्राह्य एव वदामः तेन तत्र अतिव्याप्तिदोषः भवति। यथा चक्षुषा घटमपि ग्रहतुं गृह्णातुं शक्नुमः, परन्तु तत्र रूपं न अस्ति, तत्कारणात् अतिव्याप्तिदोषः भवति।
अस्तु, अधुना चक्षुषा यत्किमपि गृह्यते ग्राह्यते तस्य विषये किञ्चित् चिन्तनं कुर्मः। अस्तु, चक्षुः यदा घटं पश्यति, चक्षुषा यदा घटं पश्यामः तदा किं किं ग्रहीतुं शक्नुमः तेन?
तत्र द्रव्यं यथा घटः अस्ति, द्रव्यं तत् तस्य ग्रहणं भवति। तत्र घटे घटे विद्यमानरूपं किम् अस्ति तत्रापि ग्रहीतुं शक्नुमः।
इति वार्ता खलु, चक्षुः तादृश इन्द्रियम् अस्ति यद् केवलं द्रव्यं न गृह्णाति, द्रव्ये विद्यमानगुणमपि गृह्णाति, गुणं गृह्णाति, गुणाश्रितद्रव्यमपि गुणाश्रयद्रव्यमपि गृह्णाति, तादृश इन्द्रियम् अस्ति चक्षुः, किल? अतः चक्षुषा यद् प्रत्यक्षं जायते, प्रत्यक्षम् इत्युक्ते ज्ञानम्, तस्य ज्ञानस्य विषयाः के के भवितुम् अर्हन्ति?
द्रव्यम् अथवा गुणम्।
द्रव्यमपि भवति गुणः अपि भवति इति वार्ता खलु। तर्हि चक्षुरिन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिष्ठविषयतानिरूपितविषयत्वम् विषयत्वं कुत्र अस्ति?
विषये अस्ति, घटे घटे अस्ति।
हा, घटे अपि अस्ति अपि च रूपे अपि अस्ति इति वार्ता किल। अतः केवलं प्रथमदलम् उपयुज्य चक्षुरिन्द्रियजन्यप्रत्यक्षनिष्ठ विषयितानिरूपितविषयत्वम् इति वदामश्चेत् घटे अतिव्याप्तिः भवति इति बुद्धम्? यतोहि तादृशविषयत्वं घटे अपि अस्ति, रूपे अपि अस्ति, बुद्धं खलु? अस्तु, तर्हि इतोपि एकं दलम् अपेक्षितं, तद् किम् इति अग्रे परिशीलयिष्यामः। वेङ्कटेश् महोदय?
अस्तु, इदानीं द्वितीय दलस्य चिन्तनम् अस्ति। तत्र तर्हि तत्र चक्षुर्भिन्नेन्द्रियनिष् तर्हि तत्र लक्षणवाक्यात् वयं चक्षुर्मात्र इति स्वीकुर्मः। तर्हि चक्षुर्भिन्नेन्द्रिय निष्ठजनकतानिरूपितजन्यताश्रय प्रत्यक्षनिष्ठविषयितानिरूपितविषयत्वाभावः एव लक्षणम् अस्तु। तर्हि एवं सति तत्र घटे अतिव्याप्तिः भवति। तर्हि तत्र चक्षुर्भिन्नं यत् इन्द्रियमिति त्वगिन्द्रियमिति वयं स्वीकुर्मः चेत् तत्र त्वगिन्द्रियजन्यप्रत्यक्षविषयत्वमेव तत्र घटे वर्तते, विषयत्व अभावः नास्ति इति न अतिव्याप्तिरिति इति चेत् तर्हि तत्र इदानीं किञ्चित् तत्र
तर्हि द्वितीयदलं किमस्ति महोदय?
चक्षुर्मात्र इति अस्ति प्रथमं, तत्र चक्षुर्ग्राह्यम् इति अस्ति, ग्राह्य इति अस्ति, द्वितीयं तु चक्षुर्मात्र इति अस्ति। तर्हि चक्षुर्मात्र
इत्युक्तौ चक्षुर्भिन्नेन्द्रिय अग्राह्यम् इति खलु, तादृशमस्ति रूपम्।
अन्य इन्द्रियात् न ग्रहीतुं शक्नुमः, तत्र केवलं चक्षुर्मात्र एव तत्र।
इदानीं घटः इति वस्तु चक्षुर्भिन्नेन्द्रिय अग्राह्यम् अस्ति वा?
न,
चक्षुर्भिन्न इन्द्रियम् इत्युक्ते त्वग् इति चिन्तयतु. चक्षुर्भिन्नेन्द्रियम् अग्राह्यः पदार्थः वा घटः? त्वगिन्द्रियेण
ग्रहीतुं शक्नुमः.
हा सत्यं, त्वगिन्द्रियेण घटः ग्राह्यः भवति इति कृत्वा घटः तादृश इन्द्रियं नास्ति. क्षम्यतां, घटः तादृशपदार्थः नास्ति, चक्षुर्भिन्नेन्द्रियग्राह्य. अस्तु, तर्हि प्रथमदले या अतिव्याप्तिः आसीत् सा अतिव्याप्तिः द्वितीयदलस्य स्वीकारेण घटे निवारिता खलु इति अवगन्तुं शक्यते खलु? हा, सा अतिव्याप्तिः निवारिता घटे इति तु सत्यं, परन्तु केवलं द्वितीयदलस्य स्वीकारे कुतश्चित् आगच्छति, कुत्रचित् आगच्छति अतिव्याप्तिः, कुत्र इति परिशीलनीयं भवति इति अग्रिमविषयः अस्ति. अतीन्द्रिये इत्यस्मात् पठतु.
अतीन्द्रिये गुरुत्वरूपगुणे वक्ष्यमाणे अतिव्याप्तिः, तथा हि आद्यपतनसमवायिकारणरूपं गुरुत्वं न केनापि इन्द्रियेण ज्ञातुं शक्यम्. यथा आकाशादीनाम् अनुमानेन प्रमाणेनैव सिद्धिः, तद्वदेव गुरुत्वस्यापि. तथा च चक्षुर्भिन्नानि यानि ग्राणादीनि इन्द्रियाणि तज्जन्यप्रत्यक्षे न गुरुत्वं विषयः इत्यायातम्. एवं सति तादृशप्रत्यक्षविषयत्वाभावः गुरुत्वे अस्ति इति गुरुत्वे अतिव्याप्तिः. तर्हि गुरुत्वम् इति वयं स्वीकुर्मः चेत् तत्र अतीन्द्रिये गुरुत्वं वक्ष्यमाणे इदानीं वक्ष्यमाणमस्ति, इतोपि वयं गुरुत्वम् इति वयं न जानीमः, अग्रे वक्ष्यते इति, तस्मिन् अपि अतिव्याप्तिः इत्युक्ते तत्र इदानीं गुरुत्वस्य कारणेन आद्यपतनसमवायिकारणरूपं, तत्र पतनस्य समवायिकारणम् अन्य केनापि इन्द्रियेण ज्ञातुं न शक्नुमः इति अतिव्याप्तिः वा तत्र?
हा, गुरुत्वम् अतीन्द्रियः, यथा आकाशः तद्वत् अतीन्द्रियः. चक्षुर्भिन्न इन्द्रियम् इति न, केनापि इन्द्रियेण अग्राह्यः गुरुत्वम् इति गुणः. अतः यदि वयं वदामः केवलं द्वितीयदलं स्वीकृत्य चक्षुर्भिन्नेन्द्रिय अग्राह्यम् इति वदामश्चेत् गुरुत्वे अतिव्याप्तिः आगच्छति न वा?
सत्यम्
आगच्छति, आगच्छति खलु. हा, इति एव वार्ता. केवलं प्रथमदलस्य स्वीकारेण घटे घटादिषु अतिव्याप्तिः,
द्वितीयदलं स्वीकरणेन गुरुत्वादि तत्र गुरुत्वे अतिव्याप्तिः, अतः तत्र अतीन्द्रिय गुरुत्वम् अन्यैः इन्द्रियैः न ज्ञातुं शक्यते. तत्र चक्षुर्भिन्नेन्द्रियत्वम् इति चक्षुर्मात्र इति वदनेन तत्र गुरुत्वे अतिव्याप्तिः इति आगतम्.
गुरुत्वे अतिव्याप्तिः आगता अस्ति. अस्तु, तर्हि अधुना पृथक् पृथक् दलं स्वीकृत्य परिशीलयामश्चेत् कुत्रचित् अतिव्याप्तिः भवति एव इति वार्ता. तर्हि हा, तृतीयदलं स्वीकृत्य अधुना परिशीलयिष्यामः. एतावत्पर्यन्तं स्पष्टमस्ति वा सर्वेषां कृते, अथवा अत्र कोऽपि प्रश्नः? अस्तु, अग्रे सरेम. तर्हि अग्रे अजितमहोदय.
तृतीय बिन्दु बिन्दु अस्ति खलु, केवलं केवलं गुणत्वमेव लक्षणमस्तु चेत् इयं गुणत्वजातिः दशादिगुणेषु वर्तते इति दशादौ सर्वत्रैव अतिव्याप्तिः. इतः दलद्वयमादाय चिन्तयामः. अस्तु, गुणत्वमेव
केवलं गुणत्वम् इति
तत्र केवलं गुणत्वम् अस्ति चेत् तद् तद् गुणत्वजातिः इति एव
गुणत्वजातिः कुत्र कुत्र वर्तते
गुणत्वजातिः रसादिगुणेषु रसादिगुणेषु वर्तते
इति खलु
तत्र रसादौ सर्वत्रैव अधिव्याप्तिः
रसः अपि गुणः तस्मिन्नपि गुणत्वम् अस्ति परिमाणमपि गुणः तस्मिन्नपि गुणत्वम् अस्ति तर्हि लक्षणवाक्ये वयं केवलं गुणोरूपम् इति वदामश्चेत् बहुत्र अतिव्याप्तिः भवति खलु स्मर्तव्यम् अस्ति यत् लक्षणवाक्यम् अव्याप्ति अतिव्याप्ति असम्भवदोषरहितं स्यात् अव्याप्ति अतिव्याप्ति असम्भवदोषरहित असाधारणधर्मः एव लक्षणम् इति उच्यते तदर्थं गुणत्वम् इति तादृशधर्मः नास्ति अव्याप्ति अतिव्याप्ति असम्भवदोषरहितः धर्मः नास्ति गुणत्वं बहुत्र वर्तते इति कृत्वा केवलं गुणत्वम् इति स्वीकृत्य न वक्तुं शक्नुमः अपि च यथा वेङ्कटेशमहोदयेन राजेन्द्रमहोदयेन उक्तं केवलं प्रथमदलम् इत्युक्ते चक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वम् अथवा केवलद्वितीयदलं चक्षुर्भिन्नेन्द्रियजन्य प्रत्यक्षविषयत्वाभावः तदपि स्वीकृत्य वदामश्चेत् कुत्रचित् अतिव्याप्तिः भवति एव इति दृष्टवन्तः
भवति एव
हा इदानीं दलद्वयं मिलित्वा चिन्तनं कुर्मः अग्रे पठतु कृपया
चक्षुरिन्द्रियनिष्ठजनकतानिरूपितजन्यदाश्रयप्रत्यक्षविषयत्वं चक्षुर्भिन्नेन्द्रियनिष्ठजनकतानिरूपितजन्यदाश्रयप्रत्यक्षविषयत्वभावः विषयत्वाभावः इति एतद्दलद्वयमेव अस्तु लक्षणमिति चेत् रूपे विद्यमानाया रूपत्वजातिः तस्यामतिव्याप्तिः तथा हि यथा घटे विद्यमानं रूपं चक्षुरिन्द्रियेण गृह्यते तथा तद्वृत्तिरूपत्वजातिरपि गृह्यते न हि सा चक्षुषः इतरैः घ्राणादिभिः इन्द्रियैः ज्ञातुं शक्या तथा च तस्यां जातौ प्रथमदलं चक्षुग्रहणत्वं वर्तते एवं चक्षुर्भिन्नेन्द्रियग्राहत्वरूपं द्वितीयं दलमिति अस्ति अतः रूपत्वे अतिव्याप्तिः यथा उक्तम् अत्र दलद्वयमादाय चिन्ता उदाहरणार्थं
घटे
विद्यमानं प्रथमदलं गुणत्व
प्रथमदलमस्ति
चक्षुरिन्द्रियनिष्ठ
तत्तु दीर्घवाक्यमस्ति सरलरीत्या वदामः हा चक्षुग्राह्यत्वं प्रथमदलं द्वितीयदलं
प्रथमदलं द्वितीयदलं
चक्षुर्मात्रग्राह्यत्वम् इति द्वितीयदलम् इदानीं दलद्वयं मिलित्वा चिन्तनं कुर्मश्चेत् कुत्रचित् अतिव्याप्तिः भवति वा इति द्रष्टव्यमस्ति अतिव्याप्तिः कुत्र भवति
तदेव अतिव्याप्तिः चक्षु विहाय
एकनिमिष एतद् लक्षणद्वयमेव इति पठतु चक्षुरिन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयत् अन्तिमपङ्क्तौ
चक्षुरि अस्तु
एतद् दलद्वयमेव अस्तु लक्षणम् इति चेत् अग्रे पश्यति वा अन्तिमपङ्क्तिः तस्मिन् पुटे तस्मिन् एव पुटे अन्तिमपङ्क्तिः महोदय.
तत्र तर्की अस्तु
74 इति पश्यति वा, अन्तिमवाक्यं पठतु.
आमां तत्रैव अन्तिमवाक्यं. आम् एवमपि गुरुत्वे अधिव्याप्तिः तथैव खलु.
कुत्र महोदय? तत्र नास्ति. एतद् द्वल 74 75 नास्ति, 74 पश्यतु. तत्र दलद्वयं प्रथमदलं प्रथमदलं द्वितीयदलम् एव स्वीकृत्य चिन्तनं भवति चेत् अतिव्याप्तिः कुत्र भवति? रूपत्वजातौ खलु इति उक्तमस्ति. हा, यतोहि रूपत्वम् इति रूपत्वजातिः चक्षुर्ग्राह्यम् अपि च चक्षुर्मात्रग्राह्यम् इति अस्ति खलु. रूपत्वजातिम् अन्य कोऽपि अन्यं किमपि इन्द्रियमस्ति वा यद् रूपत्वजातिं गृह्णाति?
नास्ति.
नास्ति.
नो, नास्ति.
हा, तर्हि रूपत्वजातौ तादृशी अतिव्याप्तिः आगच्छति. केवलं दल एकं प्रथमदलं द्वितीयदलम् इति स्वीकृत्य चिन्तनं कुर्मश्चेत् रूपत्वजातौ अतिव्याप्तिः आगच्छति. इतः अग्रे गत्वा पुनः तत्र पर्म्युटेशन् काम्बिनेशन् आसीत् खलु, प्रथमदलं तृतीयदलं, तत्सर्वं चिन्तनीयं भवति. तर्हि पठनाय समयः न स्यात्, एवमेव चर्चयामः. तत्र
भगिनी प्रश्नः अस्ति, एतत् न अवगतं मया. रूपत्वजाति विद्यमाना या रूपत्वजाति अतिव्याप्तिः कथं? रूपत्वजाति इत्युक्ते किम्?
अस्तु, रूपे रूपत्वम् अस्ति, यथा पुस्तके पुस्तकत्वं, रूपे रूपत्वं तावदेव. पुस्तके पुस्तकत्वं, घटे घटत्वम् इति जातिः तथा अस्ति महोदय इति एव प्रश्नः वा?
अतिव्याप्ति कथम्? दलद्वयमेव स्वीकुर्मः चेत्
प्रथमदलम् अस्ति चक्षुर्ग्राह्यं खलु. रूपत्वं चक्षुर्ग्राह्यम् अस्ति वा? रूपं यत्किमपि वस्तुं पश्यामश्चेत् तस्मिन् का जातिः वर्तते इति जानीमः खलु तस्य दर्शनेन. पुस्तके पुस्तकत्वं, तर्हि नीलरूपे नीलरूपत्वम् इति जानीमः दर्शनेन खलु. तर्हि नीलरूपत्वम् इति जातिः चक्षुर्ग्राह्यः अस्ति न वा? अस्ति, चक्षुर्ग्राह्या अस्ति. चक्षुर्मात्रग्राह्या अस्ति न वा नीलरूपत्वम् इति? हा खलु. तर्हि रूपत्वजातिः अपि गृह्यते, न केवलं रूपं चक्षुषा. अपि च सा रूपत्वजातिः अपरेण इन्द्रियेण न ग्राह्या इति वार्ता. न्यायशास्त्रे तादृशम् अस्ति, यद् येन किमपि येन केनचित् गृह्यते तेन तस्मिन् विद्यमानजातिः अपि गृह्यते इति अस्ति. अस्तु, तर्हि स्पर्शः तेन स्पर्शः इति गृह्यते चेत् त्वचा स्पर्शत्वमपि गृह्यते खलु, तथा. अस्तु, चक्षुषा तर्हि रूपमपि रूपत्वजातिः अपि गृह्यते, अपि च चक्षुरेण एव.
भगिनि एकः प्रश्नः अत्र, अतिव्याप्ति दोषं निवारणार्थमेव मात्रा इति शब्दं
सत्यं सत्यं हा सत्यं मात्रा इति शब्दः कस्य अतिव्याप्तिनिवारणार्थं? प्रथमदलस्य अतिव्याप्तिनिवारणार्थं मात्रशब्दः आगतः इति. राजेन्द्रमहोदय प्रथमदलं पठितवान्, तत्र अतिव्याप्तिः आसीत्. तदनन्तरं वेङ्कटेशमहोदय यत् पठितवान् तत्र मात्राशब्दस्य योजनेन घटे अतिव्याप्तिः निवारिता, परन्तु गुरुत्वे अतिव्याप्तिः आगता. पुनः गुणः इति केवलं गुणः इति वदामश्चेत् सर्वेषु गुणेषु अतिव्याप्तिः आगता. तदर्थं दलद्वयं मिलित्वा इति यद् भवान् पठितवान्, दलद्वयम् इत्युक्ते प्रथमदलं द्वितीयदलं मिलित्वा रूपत्वजातौ अतिव्याप्तिः पुनः आगता खलु इति अवगच्छति वा अजित् महोदय?
परन्तु रूपत्वजातौ अतिव्याप्ति नास्ति खलु, तदेव मम प्रश्नः.
कथं नास्ति?
रूपत्वजाति रूपे एव वर्तते खलु रूपत्वम् इत्युक्ते रूपे एव
हा सत्यं तद् तत् सत्यं किन्तु अस्माकं चर्चा का अत्र चर्चा अस्ति रूपत्वजातिः चक्षुर्ग्राह्या अस्ति न वा इति अस्ति खलु
अस्ति
अस्ति अपि च चक्षुर्मात्रग्राह्या अस्ति न वा इति चर्चा तदपि सत्यं खलु चक्षुरेण एव ग्राह्यते गृह्यते
रूपत्वं
तर्हि चक्षुग्राह्यत्वं चक्षुर्मात्रग्राह्यत्वं रूपत्वे अपि अस्ति न केवलं रूपे खलु हा इति वार्ता अस्ति हा उभयोः दलयोः मेलनेन अपि अतिव्याप्तिः आगच्छति रूपत्वजातौ प्रथमदलस्य द्वितीयदलस्य मेलनेन चक्षुग्राह्यत्वं चक्षुर्मात्रग्राह्यत्वम् इति वदामश्चेत् रूपत्वजातौ अतिव्याप्तिः भवति खलु इति अस्ति तस्य निवारणार्थं गुणत्वम् इति अपेक्षितं गुणत्वम् इति योजयामश्चेत् तत्र रूपत्वं गुणः नास्ति रूपत्वम् इति जातिः गुणः नास्ति तेन अतिव्याप्तिः निवारिता भवति इति वक्तव्यं भवति अस्तु
अत्र केवलं गुणपरिशीलनं मनसि निधाय पठनं कर्तव्यम्
हा केवलं गुणः अपि न पर्याप्तं खलु वयं दृष्टवन्तः दलत्रयमपि अपेक्षते अस्तु तर्हि दलद्वयम् अपि न पर्याप्तम् एकं दलं प्रथमदलं द्वितीयदलं न पर्याप्तम् अग्रे गत्वा प्रथमदलं तृतीयदलम् इति अग्रिमपृष्ठे अस्ति तत्र रत्ना भगिनी अस्ति वा
आं भगिनी अस्मि
हा तत्र किञ्चित् चिन्तनं करोतु भगिनी प्रथमदलं द्वितीयदलं तृतीयदलम् इत्युक्ते किं
हा प्रथमदलम् इत्युक्ते तत्र चक्षुषा ग्राह्यम् इति अस्ति द्वितीयदलमस्ति चक्षुषा मात्रग्राह्यम् इति तृतीयदलमस्ति गुणः इति भवति
किन्तु हा किन्तु अस्माकम् अधुना चतुर्थप्रकारः इति अस्ति खलु प्रथमदलं तृतीयदलं दलं तयोः मेलनेन मेलनं
हा हा मेलनेन किमर्थम् अतिव्याप्तिः भवति इति वा अस्तु यथा भवत्या उक्तं रूपमपि ग्राह्यते चक्षुषा रूपत्वम् अपि ग्राह्यते चक्षुषा चक्षुषा मात्र ग्राह्यते रूपं रूपत्वम् अपि अतः अस्माकं विषयः अस्ति रूपम् इति रूपत्वं न अतः रूपम् एव ग्राह्यते इति वक्तुं न शक्नुमः एतद् एतयोः स्वीकृत्य
अधुना मम प्रश्नः अस्ति अग्रिमपरिच्छेदे अग्रिमपृष्ठे द्वितीयपरिच्छेदं पठतु प्रथमवाक्यम्
इयम् अतिव्याप्तिः इति वा
सत्यं
हा इयम् अतिव्याप्तिः द्वितीयदल दलम् अपसार्य तृतीयं यत् गुणत्वरूपं दलं तन्निवेशेन वार्यते अस्तु गुणम् इति स्वीकुर्मः चेत् चक्षुषा ग्राह्यं गुणम् इति स्वीकुर्मः चेत् तत्र जातिः न आगच्छति गुणम् इति आगच्छति प्रथम द्वितीयस्य यत् अतिव्याप्तिः स्वीकारेण एव अतिव्याप्तिः भवति तत् निवार्यते प्रथमं तृतीयं स्वीकुर्मः चेत्
प्रथमं तृतीयं स्वीकुर्मश्चेत् तद् निवार्यते किन्तु केवलं प्रथमं च तृतीयं स्वीकरणेन अन्यत्र कुत्रचित् अतिव्याप्तिः आगच्छति वा अग्रिमपरिच्छेदस्य प्रथमवाक्यं पठतु
एवमपि द्वीन्द्रियग्राह्यः ये संख्या इति अपि गुणः अस्ति संख्या अपि चक्षुषा ग्राह्यते अतः रूपमपि चक्षुषा ग्राह्यते रूपमपि गुणः यत् चक्षुषा ग्राह्यते संख्या अपि गुणः यः चक्षुषा ग्राह्यते अतः पुनः केवलम् एकं प्रथमं तृतीयं स्वीकुर्मः चेत् तत्र अतिव्याप्तिः भवति पुनः
पुनः संख्यायाम् अतिव्याप्तिः भवति अस्तु इति सर्वत्र अतिव्याप्तिः अस्ति एकमपि दलं त्यक्तं चेत् अतिव्याप्तिः भवति द्वितीयदलं त्यक्तं चेत् सङ्ख्यायाम् अतिव्याप्तिः. अधुना अग्रिमबिन्दुः अस्ति विद्याशङ्करमहोदय, अन्तिमपरिच्छेदं पश्यतु. तत्र केवलं द्वितीयदलं तृतीयदलम् इति, तत्र किं?
तत्र सङ्ख्याविषये एकः अस्ति, सङ्ख्याविषये सङ्ख्या अनेनपि अनेनपि इन्द्रियेण ग्राह्यते न वा, तदपि वक्तव्यं. सङ्ख्या केवलं चक्षुषा न, गुणमपि अस्ति, चक्षुषा अपि अस्ति, परन्तु हस्तेन हस्तेनापि गणयितुं शक्यते.
तदर्थं द्वितीयदलम् अपेक्षितं खलु. चक्षुर्भिन्नेन्द्रिय अग्राह्यं नास्ति सङ्ख्या, तदर्थ इत्येव फलितार्थः. द्वितीयदलं त्यक्तं चेत् सङ्ख्यायाम् अतिव्याप्तिः भवति, द्वितीयदलं योजितं चेत् सङ्ख्यायाम् अतिव्याप्तिः गच्छति इति वार्ता.
षष्टमः अस्ति, षष्टमः अस्ति, द्वितीयं च तृतीयं बिन्दु योजयित्वा किं भवति इति, तत्र चक्षुर्भिन्न इन्द्रियेण अग्राह्यत्वं गुणत्वं च अपि अस्ति, तथापि तत्र गुरुत्वविषये अतिव्याप्तिः भवति. किमर्थमित्युक्ते गुरुत्वं पूर्वमपि आगतं, गुरुत्वं चक्षुषा न ग्राह्यते.
केवलं द्वितीयं इति भवता सम्यक्तया एव उक्तं, केवलं द्वितीयम् इत्युक्ते चक्षुर्भिन्नेन्द्रिय अग्राह्यम् इति.
गुरुत्वं चक्षुर्भिन्न अग्राह्यम् अपि अस्ति, गुणः अपि अस्ति, तस्मात् गुरुत्वविषये अतिव्याप्तिः दोषः भवति.
हा, अतिव्याप्तिः दोषः भवति एव. तद् निवारणार्थं किं कर्तव्यं?
दलत्रयम् आवश्यकं,
दलत्रयम् आवश्यकं. हा, अन्ततो गत्वा एकमपि त्यक्तं चेत् क्लेशः भवति इति वार्ता. दलत्रयमपि अपेक्षितं रूपस्य लक्षणवाक्ये. अस्तु, तद्वद् स्पर्शस्य लक्षणवाक्ये अपि दलत्रयम्. अग्रिमपुटं पश्यतु कृपया, तत्र चित्राणि सन्ति, गृहे परिशीलयन्ति चेत् वर्गानन्तरं सर्वं स्पष्टं भवति. स्पर्शस्य लक्षणमपि रूपवतेव अस्ति. त्वगिन्द्रियमात्रग्राह्यो गुणो रूपम् इति प्रदर्शितमस्ति तत्र नवसप्ततितमे पुटे. तद् किञ्चित् परिशीलयन्तु. इतः अग्रे गच्छन्तु, अग्रिमपृष्ठे अष्टसप्ततितमे पुटे, अष्टसप्ततितमे पुटे ग्राणग्राह्यो गुणो गन्धः इति प्रथमचित्रं पश्यन्ति वा? ग्राणग्राह्यो गुणो गन्धः इति प्रथमं चित्रं, रसनग्राह्यो गुणो रसः इति प्रथमं द्वितीयं चित्रं, श्रोत्रग्राह्यो गुणो शब्दः इति तृतीयं. तत्र किमर्थं मात्रा शब्दः नास्ति?
तत्र किं मात्रा तत्र अन्तर्भूतः अस्ति, घ्राणं केवलं गन्धः केवलं घ्राणेन ग्राह्यते, न तु अन्येन इन्द्रियेण. किन्तु चक्षुरूपविषये चक्षुषा रूपमपि द्रष्टुं शक्यते, अन्य किम् अस्ति इति अपि वक्तुं शक्यते. तत्र ज्ञानद्वयं भवति.
हा, समीचीनम्. इत्युक्ते द्रव्यमपि गृह्णाति, गुणमपि गृह्णाति चक्षुः त्वक्. हा, सम्यक् महोदय. किन्तु ग्राणं तथा नास्ति खलु, ग्राणेन केवलं गन्धः एव गृह्यते, न तु तदाश्रितद्रव्यम् इति वार्ता खलु, इति वक्तुम् इच्छति खलु महोदय?
आम्, यद्यपि मातृता अस्ति परन्तु वक्तव्यं नास्ति, तत्र अन्तर्भूतः अस्ति केवलं.
हा, समीचीनम् इति एव अस्ति, यतोहि गुणमात्रग्राहकाणि सन्ति कानि? घ्राणं, रसनं च श्रोत्रम् इति. हा, इति कृत्वा एतेषां लक्षणवाक्ये मात्रशब्दः न निवेशनीयः इति
वा. भगिनि, पुनः किञ्चित् भ्रमः आगच्छति. रूपः इत्युक्ते वर्णमेव खलु?
वर्णः एव, सत्यम्.
वर्णः एव इत्युक्ते चक्षुर्भिन्नेन्द्रियेण कथं ज्ञायते वयं?
चक्षुर्भिन्नेन्द्रियेण न ज्ञायते नागराज महोदय इति वार्ता. तदर्थमेव मात्रशब्दः योजितः तत्र.
मात्रशब्दस्य आवश्यकम् अस्तु अस्तु अस्तु
दलसार्थक्यं दृष्ट्वा जानाति मात्रशब्दः किमर्थम् आवश्यकः इति. पञ्चाशत्तमपुटे अस्ति एकं एककोष्टकम् अस्ति, तत्र द्रव्यगुणोभयग्राहकाणि चक्षुः त्वक् मनः इति अस्ति खलु. चक्षुः त्वक् द्रव्यमपि गृह्णाति, द्रव्ये विद्यमानगुणमपि गृह्णाति इति कृत्वा तत्र मात्रशब्दः आवश्यकः. अस्तु, गुणमेव गृह्णाति कानि? घ्राणं, रसनं, श्रोत्रम् इति इन्द्रियाणि. तदर्थमेव विद्याशङ्करमहोदयेन उक्तं तत्र मात्रशब्दः अन्तर्गतः अस्ति. इत्युक्ते अर्थः घ्राणम् इति केवलं गन्धमेव गृह्णाति, न तु गन्धाश्रितपृथिवीं, गन्धाश्रयपृथिवीम्. अतः लक्षणवाक्ये मात्रशब्दः न आवश्यकः.
अस्तु, इदानीम् अवगतं.
अस्तु, इति अस्ति.
परन्तु पुनः पुनः भ्रम आगच्छति.
इतोपि एकवारं कृपया दलसार्थक्यम् इति पठतु, स्पष्टं भवति इति
शब्दस्य आवश्यकता नास्ति, तदर्थं न वदति.
सत्यं, मात्रशब्दस्य आवश्यकता नास्ति. सत्यम्,
एकशब्दस्य योजनेन बहवः किं जस्टिफिकेशन् आगताः.
आमामां, सत्यं, लाघवम् इच्छन्ति ते सर्वत्र, तर्हि अत्र मात्रशब्दः न अपेक्षितः इति. अस्तु
भगिनि, प्रश्नः, घ्राणत्वं, रसनत्वं, श्रोत्रत्वम् इति केनापि न कोऽपि न गृह्णाति किल?
सत्यं भगिनि. तर्हि वयं दृष्टवन्तः प्रत्यक्षयोग्यता कुत्र कुत्र अस्ति इति, तत्रापि दृष्टवन्तः घ्राणेन्द्रियं, रसनेन्द्रियं, श्रोत्रेन्द्रियं, तेषां प्रत्यक्षयोग्यता नास्ति.
आम्, अपि च तेषां रूपस्य अपि, क्षम्यतां, तेषां जात्याः अपि किल ग्राणत्वम् इति कोऽपि.
इदानीम् इन्द्रियमेव अतीन्द्रियः अस्ति चेत् इन्द्रियत्वं केन गृहीतुं शक्यते इति प्रश्नः आगच्छेत् खलु.
अस्तु अस्तु भगिनि,
इति स्यात्. अन्यत् किमपि चिन्तनमस्ति वा अथवा कस्यचित् प्रश्नः? नो चेत् विरमामः. धन्यवादः.
धन्यवादः. नमस्कारः.